तिलकभूषणमाश्रयन्ति भृङ्गाङ्गनेव मुकुलाभरणं तमालम् अङ्गीकृता किल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः सागर सम्भवायाः विश्वामरीन्द्रपद विभ्रमदान दक्षम् आनन्द हेतुरधिकं मुरविद्विषोऽपि ईशन्निषीदतु मयि क्षण वीक्षण ीवरोदर सहोदरमिन्दिरायाः याङ्गनायाः नन्दनायाः पापं तदे मुरजितः श्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति काम कमलानयायाः प्राप्तं पदं प्रथमतः खलु यत्प्रभावा मधुमाधिनि मन्मधेन मय्यापते तदिह मन्धरवीक्षणार्थं मन्दालसं च मकरालय कन्यकायाः दयानुपवनो द्रविणाम्बुधाराम् अस्मिन्न किञ्चन विहङ्गशिशो विषण्णे दुष्कर्म घर्ममपनीय चिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाहः मतयोऽपि यया दयाद्रदृष्ट्या त्रिविष्टपपदं सुलभं भजन्ते दृष्टिः प्रहृष्टकमनोदय पुष्कर विष्टरायाः सुन्दरीति शाकम्भरीति शशिशेखर वल्लभेति सृष्टिस्थिति प्रलय केलिषु संस्थिताये तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्ये वल्लभाये नमोस्तु नालीक निभाननाये नमोस्तु दुग्धोदधि जन्मभूमि नमोस्तु सोमामृत सोदनाये नमोस्तु नारायण वल्लभाये वल्लभाये नमोस्तु देव्यै भृगुनन्दनाय स्थिताये नमोस्तु लक्ष्मी कमलालयाये नमोस्तु दामोदर वल्लभाये नमोस्तु कांते कमलेक्षणाय नमोस्तु भूत्ये भुवन प्रसूत्ये नमोस्तु देवादिभिरचिताये नमोस्तु नन्दात्मज वल्लभाये सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षी त्वद्वन्दनानि दुरिता हरणोद्यतानि मामेव मातरनिशं कलयन्तु माने